अथ शिव संकल्पः। यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिव संकल्पमस्तु। येन कर्मा आण्यपसो मनीषिणो यज्ञे कृणवन्ति विदतेषु धीराः यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिव संकल्पमस्तु। यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु यस्मान्नरिते किञ्चन कर्म क्रियते तन्मे मनः शिव संकल्पमस्तु। येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वं येन यज्जस्तायते सप्त होता तन्मे मनः शिव संकल्पमस्तु। यस्मिन्ऋचः सामयजूंश्च यस्मिन् प्रतिष्ठिता रथनाभावि वाराः यस्मिंश्चित्तगं सर्वमोतं प्रजानां तन्मे मनः शिव संकल्पमस्तु। स्तुषारथिरश्वानि वयं मनुष्या ने नीयते बेषु विर्वाजिन इव हृत्प्रतिष्ठं यदजिरञ्जविष्ठं तन्मे मनः शिव संकल्पमस्तु। इति शिवसंकल्पमन्त्राः।